वदतु भगिनि.
आं महोदय.
सुजाता भगिनी वदति वा
महोदय? सिद्धा नै,
सिद्धा नास्ति. अस्तु 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 अस्तु, चिन्ता मास्तु, चिन्ता मास्तु. अस्तु, तत्र बेदा भगिनी भवती वदति वा?
आम् महोदय.
अस्तु.
हरिः ओम्. सरस्वती नमस्तुभ्यं, वरदे कामरूपिणी, विद्यारम्भं करिष्यामि, सिद्धिर्भवतु मे सदा. ज्ञानानन्दमयं देवं निर्मलस्फटिकाकृतिम् आधारं सर्वविद्यानां हयग्रीमुपास्महे. सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्. ॐ शान्ति शान्ति शान्तिः. सर्वेभ्यो गुरुभ्यो नमः.
धन्यवादः भगिनि. धन्यवादः. सर्वेभ्यो नमः. सर्वेषां स्वागतम् अस्मिन् वर्गे. अस्माकं प्रवर्तमानः विषयः अस्ति तत्र सङ्ख्याः इति. तत्र तासां विषये तत्र केवलं तत्र भूमिका एव तत्र कृतवन्तः, भूमिकामेव तत्र पठितवन्तः इति मन्ये. पुटसङ्ख्या अस्ति तत्र किं षष्टिः, तत्र एकः, द्वे, त्रीणि, अपि चत्वारि, पञ्च तावत्पर्यन्तं तत्र एकतः चत्वारि पर्यन्तं तत्र किम् अवगतवन्तः तत्र कोष्टकं दृष्ट्वा. तत्र नरेश् महोदय, नरेश् महोदय, तत्र किम् अस्ति?
लिङ्गभेदः अस्ति.
लिङ्गभेदः अस्ति, हा. अतः तत्र एकः बालकः किन्तु एका बालिका, अपि त्रयः छात्राः किन्तु त्रीणि पुष्पाणि इति, अपि चत्वारः पुल्लिङ्गे, चतस्रः स्त्रीलिङ्गे, अपि चत्वारि नपुंसकलिङ्गे. किन्तु तदनन्तरं रूपभेदः, रूपसामान्यमस्ति तत्र पञ्च पञ्च पञ्च, तदनन्तरं षट् षट् षट्, सप्त 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 इति एव भवति. अतः तत्र किम् अस्ति, तत्र एकतः चतुर्पर्यन्तं तत्र लिङ्गभेदः अस्ति. अपि तत्र सङ्ख्या इति विशेषणम् इति स्वीकुर्मः तत्र, यतोहि तत्र एका बालिका, बालिका स्त्रीलिङ्गे अस्ति, एकापि स्त्रीलिङ्गे अस्ति. किन्तु अग्रे किं भवति तत्र पश्यामः. तत्र षट् सप्त अष्ट इति तत्र लिङ्गभेदः नास्ति, सर् तत्र सामान्यमस्ति. किन्तु तत्र अभ्यासः कुर्मः, यतोहि तेनैव तत्र कीदृशं रूपं भवति इति तत्सर्वं ज्ञातुं शक्नुमः. अतः तत्र अस्मिन् विषये तत्र गीतासोपाने अधिकं न दत्तमस्ति. अतः तत्र अहं चिन्तितवान् तत्र अन्यत् तत्र करपत्रं स्वीकुर्मः. तत्र एतत् अन्यपुस्तकात् अस्ति, अन्यत् पुस्तकात् अस्ति, किन्तु एकनिमिषं लिङ्क् प्रेषयामि. हा, एकनिमिष, कुत्र अस्ति? हा, अस्तु, इदानीम् अत्र अस्ति. हा, चाट् मध्ये, चाट् मध्ये अहं प्रेषितवान्. नरेश् महोदय, अहं तत्र ईमेल् द्वारा प्रेषयामि.
आं महोदय.
हा, प्रेषितवान् महोदय. सर्वे प्राप्तवन्तः वा?
ईमेल् न प्राप्तवान्.
ईमेल् न, न, चाट् मध्ये प्रेषितवती भगिनि.
आं महोदय, आं महोदय.
हा हा,
चाट् मध्ये,
चाट् मध्ये एव, किन्तु नरेश् महोदय दूरवाण्या आगतवान्, अतः तत्र, हा, अस्तु, अतः तत्र सर्वे प्राप्तवन्तः चेत् उत्तमम्. अतः इदानीं तत्र ततः पठामः. तत्र एकः इति अस्ति, किन्तु केवलं तदपि एकवारं पठामः, केवलं तत्र अभ्यासार्थम्. अतः तत्र उषा भगिनी आरम्भं करोति वा तत्र?
आं महोदय. अदो निर्दिष्टानि वाक्यानि पठत. पुंलिङ्ग अस्ति, स्त्रीलिङ्ग अस्ति, प्रथमा विभक्तिः त्रिषु लिङ्गेषु, पुंलिङ्गे, स्त्रीलिङ्गे, अपि च नपुंसकलिङ्गे. एकः बालकः क्रीडति पुंलिङ्गे, एका बालिका क्रीडति स्त्रीलिङ्गे, एकं फलं पतति नपुंसकलिङ्गे. द्वौ बालकौ क्रीडितः, द्वे बालिके क्रीडितः,
क्रीडतः
क्रीडतः, द्वे फले पततः. द्वे
अत्र तत्र रूपं कीदृशं भवति? तत्र पुल्लिङ्गे किं रूपं?
द्वौ पुंलिङ्गे, द्वे स्त्रीलिङ्गे, रमा रमे रमे इति द्वे. परन्तु नपुंसकलिङ्गे अपि द्वे एव.
हा, नपुंसकलिङ्गे अपि द्वे एव. तत्र प्रातिपदिकम् अस्ति, तत्र एक इति प्रातिपदिकम् अपि तत्र यत् यथा गीतासोपने दत्तमस्ति तत्र द्वि इति प्रातिपदिकम्.
हा,
द्वि इति प्रातिपदिकं, द्वि इति प्रातिपदिकस्य पुल्लिङ्गरूपं द्वौ,
द्वौ
द्वे,
नपुंसकलिङ्गे द्वे,
द्वे अपि समीचीनं. हा, समीचीनम्. अस्तु, अग्रे शोभा भगिनी.
इदानीं
वंशीसुधा भगिनी, नमस्कारः भगिनी. नमस्कारः,
एकनिमिषं शृणोमि महोदय.
अस्तु भगिनी. हा, अस्तु अस्तु, चिन्ता मास्तु. किन्तु तत्र पुनः तत्र तत्र करपत्रं प्रेषयामि चाट् मध्ये.
अस्तु, किम् अस्ति महोदय करपत्रं?
सङ्ख्या, सङ्ख्या इति विषये.
अस्तु महोदय, पश्यामि. परन्तु
अस्तु अस्तु, चिन्ता मास्तु. हा, अस्तु भगिनि.
तत्र द्वौ बालकौ,
तत् कृतम्. इदानीं त्रि इति प्रातिपदिकं, त्रि इति प्रातिपदिकस्य रूपाणि कानि?
त्रि इति पुंलिङ्गे त्रयः इति भवति, त्रयः बालकाः क्रीडन्ति. स्त्रीलिङ्गे तिस्रः इति भवति, तिस्रः बालिकाः क्रीडन्ति. नपुंसकलिङ्गे त्रीणि इति भवति, त्रीणि फलानि पतन्ति.
त्रीणि फलानि पतन्ति, समीचीनं. हा, इदानीं इदानीं तत्र चतुर् इति प्रातिपदिकं, तस्य रूपाणि?
तत्र मम
अग्रिमपुटे अस्ति,
अग्रिमपुटं न उद्घाटितं महोदय. किमपि
स्क्रोल् डौन्, स्क्रोल् डौन्
किन्तु कुण्ट् प्रिव्यू फैल् दर् वास् अ प्राब्लम् लोडिङ्ग् मोर्.
न न भगिनि, तत्र प्रायशः तत्र डौन्लोड् एव करणीयम् इति मन्ये. तत्र गूगल् मध्ये एतद् भवति, पी डि एफ़् फैल् अस्ति चेत् प्रिव्यू न कर्तुं शक्नुमः, तत्र साक्षात् डौन्लोड् करणीयम्.
सामान्यतया उद्घाटनं कर्तुं शक्नोमि, किन्तु अधुना डौन्लोड्
अस्तु अस्तु
महोदय.
अस्तु अस्तु भगिनि, अस्तु.
अस्तु, हा, तर्हि तत्र बालकाः तत् अभवत्. अग्रिमं पुंलिङ्गे अधुना
चत्वारि प्रातिपदिकं,
पुंलिङ्गे चत्वारः पुरुषाः गच्छन्ति, स्त्रीलिङ्गे चतस्रः बालिकाः क्रीडन्ति, नपुंसकलिङ्गे चत्वारि यानानि गच्छन्ति.
एतावत् तत्र लिङ्गभेदः अस्ति, रूपभेदः अपि अस्ति, नाम तत्र चत्वारः, चतस्रः, चत्वारि इति अस्ति. समीचीनं भगिनि, अस्तु. इदानीम् अग्रे तत्र सुजाता भगिनी अग्रे पठति वा? तत्र पञ्च अपि षट्, तत्र पञ्च इति पदं, तत्र प्रातिपदिकं तु पञ्चन् इति अस्ति. रूपाणि एकवारं पठतु भगिनि. सुजाता भगिनी प्राप्तवती वा?
न, न महोदय,
चाट् मध्ये न प्राप्तवती वा?
चाट्, ऐ डोण्ट् नो हौ टु डू इट् महोदय.
ओ, अस्तु अस्तु भगिनि, एकनिमिषः. अस्तु, अतः तत्र प्रिया भगिनी अग्रे पठति वा?
आं महोदय, करोमि.
सुजाता भगिनी तत्र ईमेल् ईमेल् प्रेषयति वा? तत्र मम पार्श्वे भवत्याः ईमेल् नास्ति इति मन्ये. अस्तु, प्रिया भगिनी पठतु भगिनी अग्रे.
पञ्च आसन्दाः सन्ति पञ्च नर्तक्यः नृत्यन्ति पञ्च पुष्पाणि सन्ति अत्र लिङ्गभेदः नास्ति पुल्लिङ्गे स्त्रीलिङ्गे नपुंसकलिङ्गे च रूपं समानमेव
समानमेव अपि तत्र प्रातिपदिकं यथा तत्र गीतासोपने दत्तमस्ति पञ्चन् इति नकारन्त हलन्तपदम् अस्ति पञ्चन् इति तत्र अस्तु अग्रे तत्र षट् इति
तस्य प्रातिपदिकं षष् इति अस्ति षकारान्तः शब्दः अस्ति तस्य पुल्लिङ्गपदं षट् षट् वाराः कूर्दन्ते षट् मधुमक्षिकाः सन्ति षट् मन्दिराणि निर्मितानि अत्रापि लिङ्गभेदः नास्ति
लिङ्गभेदः नास्ति समीचीनं भगिनि अस्तु अग्रे तत्र
महोदय एकः प्रश्नः महोदय विशेषणमपि अस्ति वा महोदय
विशेषणम् इति हा तस्मिन् हा विशेषणम् अस्ति भगिनि विशेषणम् अस्ति किन्तु तत्र एकः अंशः अपि वक्तव्यः अस्ति अग्रे वदामि किन्तु सङ्ख्या इति तु विशेषणम् एव विशेषणम् इति स्वीकरणीयम् अस्ति किं भगिनि
षट् वानराः षट् मधुमक्षिकाः
नाम तत्र रूपसामान्यम् अस्ति भगिनि तत्र रूपे कोऽपि परिवर्तनं नास्ति तावदेव
षट् इत्युक्ते बहुवचनमस्ति न षट्
षट् हा हा षट् इति तु एकवचने न भवति तत्र यथा तत्र द्वि इति द्विवचने एव भवति ततः त्रि आरभ्य तत्र सर्वेषां तत्र सर्वे हा तत्र सङ्ख्याः तत्र याः सन्ति तत्र
पर्यन्तं बहुवचने अस्ति
विंशतिवचने
आरभ्य एकवचने अस्ति
हा 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 इति इति अग्रे अवधेयमपि अस्ति तत्रापि वयं पश्यामः समीचीनं भगिनि हा इति एकनिमिषः तत्र ओ तत्र किम् ओ क्षम्यतां तत्र किमस्ति सुजाता भगिनी एकनिमिषं तत्र दृष्ट्वा तत्र भवत्याः तत्र
महोदय परन्तु अहं चिन्तयामि भगिन्याः प्रश्नः एतत् अस्ति विशेषणमस्ति किल अत्र षट् इति प्रथमविभक्त्यौ एकवचने बहुवचने अस्ति द्वितीया अपि अस्ति एतत् सर्वम् अस्ति अत्र
अग्रे अग्रे भवति भगिनि द्वितीया द्वितीयविभक्ति तृतीयविभक्ति सर्वं कुर्मः अग्रे तत्र करपत्रे अस्ति
अस्तु महोदय
हा इदानीं तत्र केवलं परिचयः तत्र प्रथम अंशः तत्र ज्ञातव्यः सङ्ख्यायाः विषये नाम पञ्च आरभ्य तत्र रूपसामान्यम् अस्ति इति इदानीम् अग्रे तत्र कुर्मः अस्तु इदानीं तत्र षष् इति तत् तावत्पर्यन्तं कृतवन्तः अस्तु इदानीं तत्र अग्रे तत्र शुभदा भगिनी नमस्कारः श्रीप्रिया भगिनी नमस्कारः तत्र नमस्कारः तत्र करपत्रम् अस्ति तत्र प्रायशः तत्र एकनिमिष पुनः चाट् मध्ये प्रेषयामि
स्वीकृतं महोदय
स्वीकृतं वा अस्तु अस्तु शुभदा भगिनी भवत्याः पार्श्वे अस्ति वा
किं महोदय
करपत्रं सङ्ख्या इति विषये तत्र
अस्ति महोदय
अस्तु 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 अतः अस्तु भगिनि अतः भवती पठति वा अग्रे
आमां महोदय
अस्तु सप्त अपि अष्ट इदानीं
अस्तु महोदय सप्त सप्त सैनिकाः सन्ति सप्त बालिकाः लिखन्ति सप्त पुस्तकानि सन्ति
सप्तन् सप्तन् इति प्रातिपदिकम् अपि रूपं प्रथमविभक्तौ सप्त इति हा समीचीनम् अग्रे
अष्ट छात्राः गच्छन्ति अष्ट बालिकाः क्रीडन्ति अष्टफलकानि सन्ति
अत्र अष्टन् इति तत्र प्रातिपदिकम् अपि रूपम् अष्ट इति समीचीनं भगिनि अस्तु हा अग्रे तत्र हा श्रीप्रिया भगिनी अग्रे पठति वा नव अपि दश इति
नवचिकित्सकाः सन्ति नवबालिकाः गच्छन्ति नवपत्राणि सन्ति दशवृक्षाः सन्ति दश रज्जवः सन्ति दशचक्राणि सन्ति
हा अत्र पुनः तत्र दशन् इति तत्र प्रातिपदिकं नवन् दशन् इति प्रातिपदिकम् अस्ति किन्तु रूपं तु तत्र नव 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 दश 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 इति समीचीनम् अस्तु इदानीं तत्र एकादशतः तत्र दश इति एव अन्ते भवति खलु तत्र सङ्ख्ये यदि सङ्ख्यां कुर्मः तत्र एकादशः अथवा पञ्चविंशतिः इति एव भवति अतः तत्र विंशतिः त्रिंशत् चत्वारिंशत् इति एतेषां तत्र रूपं तत्र रूपाणि जानीमश्चेत् तत्र यदि विंशतिः तत्र तस्य रूपं कीदृशम् इति जानीमः तत्र एकविंशति वा द्वाविंशति वा तत्र तस्य रूपमपि वयं जानीमः एव अतः तत्र किन्तु एकवारं तत्र केवलं तत्र अभ्यासार्थं तत्र किन्तु एतत् बहु किमपि अस्ति खलु तत्र विंशतिः पर्यन्तम् अस्ति किन्तु एकवारं तत्र पश्यन्तु तत्र एकादशतः तत्र षोडशः सप्तदशः अष्टादशः नवदशः तदनन्तरं विंशतिः इति अस्ति तदनन्तरम् अवधेयम् इति अस्ति तत्र अवधेयं पश्यामः तत्र इदानीं तत्र सुजाता भगिनी प्राप्तवती वा
महोदय डौन्लोडिङ्ग्
अस्तु 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 भगिनि अस्तु चिन्ता मास्तु अस्तु अतः तत्र नरेश महोदय तत्र अवधेयम् इति तत्र वदतु महोदय इदानीं तत्र करपत्रे तत्र विंशतिः अनन्तरं यद् अस्ति तत्र
ओ करपत्रे
केवलं करपत्रे
करपत्रे तु विंशति अवधेयम् अवधेयं पञ्चतः आरभ्य शतं यावत् ये सङ्ख्याशब्दाः तेषां त्रिषु लिङ्गेषु समानरूपाणि भवन्ति
अतः तत्र अत्र अत्र तु विंशतिः पर्यन्तं दत्तमस्ति किन्तु किं
शतं
हा शतं पर्यन्तं हा शतं यावत् तत्र समानरूपाणि भवन्ति इति हा इदानीं तत्र यतः तत्र पूर्वं तत्र उषाभगिनी पृष्टवती तत्र विशेषणमस्ति चेत् तत्र विभक्तिरूपाणि अपि तत्र आवश्यकानि इति अतः तत्र अग्रे एषः एव विषयः तत्र एकः द्वि इति शब्दस्य तत्र वयं गतवर्गे कृतवन्तः इदानीम् अग्रिमे पुटे तत्र पुटसङ्ख्या तत्र 545 इति अस्ति तत्र त्रिशब्दः अपि चतुर्शब्दः तत्र तेषां रूपाणि दत्तानि सन्ति तद् एकवारं पश्यामः अतः तत्र महोदय भवान् तत्र त्रिशब्दस्य रूपाणि एकवारं पठति वा पुल्लिङ्गे तत्र रूपाणि
पुल्लिङ्गे प्रथमत्रयः द्वितीयत्रीन् तृतीयत्रिभिः चतुर्थी त्रिभ्यः पञ्चमे
त्रिभ्यः
त्रिभ्यः पञ्चमे त्रिभ्यः षष्टित्रयाणां सप्तमी त्रिषु
त्रिषु इति समीचीनम् अस्तु इदानीं तत्र उषा भगिनी तत्र स्त्रीलिङ्गे वदतु पठतु तत्र
त्रिशब्दः स्त्रीलिङ्गे तिस्रः तिस्रः तिसृभिः तिसृभ्यः तिसृभ्यः तिसृणां तिसृषु
हा इति अस्तु समीचीनम् इदानीं तत्र शोभा भगिनी अग्रे तत्र पुल्लिङ्गे तत्र त्रयः त्रीणि त्रिभिः इति तत् अस्ति खलु भगिनि तत्र त्रयः अपि त्रीणि उपयुज्य वाक्यं वदतु
महोदय त्रयः 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 बालकाः शालां गच्छन्ति
हा इदानीं त्रीणि
त्रयः त्रीणि एव वा त्रयः अपि त्रीणि
न न न न त्रयः इति प्रथमविभक्तौ इदानीं त्रीणि इति द्वितीयविभक्तौ हा त्रीणि केवलं पुल्लिङ्गे हा त्रयः अपि त्रीणि इति
अस्तु त्रीन् बालकान् शालां गच्छन्तः पश्यतु शालां गच्छन्तः त्रीन् बालकान् पश्यन्तु भवति वा
पश्यतु अपि भवति किन्तु तत्र गच्छन्तः इति तत्र किमस्ति
ओ गच्छन्तः ओ गच्छ ओके गच्छन्तं
तत्र तु हा न तत्र भवान् इति शब्दस्य रूपाणि एकवारं वदतु
भवन्तौ भवन्तः भवन्तं भवन्तौ भवन् भवतः भवतः
इदानीं हा तावदेव भगिनि हा
अस्तु शालां गच्छतः त्रीन् बालकान् पश्यतु
हा पश्यतु इति समीचीनम् अस्तु इदानीं
समीचीनं
भगिनि हा हा समीचीनं हा तत्र पाठशालान् गच्छन्तन् गच्छतः बालकान् पश्यन्तु हा
अस्तु
त्रीन् हा समीचीनम् इदानीं तत्र अग्रे वेदा भगिनी इदानीं तत्र त्रिभिः तृतीया विभक्तौ एकवाक्यं वदतु सरलवाक्यम् अस्तु भवती चिन्तयतु तत्र अग्रे तत्र
बालकैः त्रिभिः बालकैः सह अहं गच्छामि
तावदेव समीचीनम् अस्तु प्रिया भगिनी इदानीं चतुर्थी विभक्ति त्रिभ्यः
त्रिभ्यः बालकेभ्यः फलं क्रीणामि फलानि क्रीणामि
हा फलानि क्रीणामि समीचीनं भगिनि हा अस्तु शुभदा भगिनी इदानीं पञ्चमी
पञ्चमी त्रिभ्यः इति त्रिभ्यः व्याघ्रेभ्यः बालकाः भीताः सन्ति
हा समीचीनं भगिनि अस्तु अग्रे श्रीप्रिया भगिनी इदानीं तत्र षष्टि
त्रयाणां बालकानां पिता वित्तकोषे कार्यं कुर्वन्ति
वित्तकोषे
कार्यं करोति
हा करोति हा समीचीनं भगिनि हा अस्तु समीचीनम् अस्तु अग्रे तत्र
अहं वदामि वा महोदय
अस्तु भगिनि भवती वदतु अग्रे तत्र इदानीं तत्र
त्रिषु
हा तत्र न एतत् इदानीं स्त्रीलिङ्गे तत्र
न महोदय त्रिषु
ओ त्रिषु अपि अस्ति सप्तमी अस्तु वदतु भगिनि हा
त्रिषु बालकेषु कृष्णः चतुरः
हा अस्तु समीचीनम् इदानीं तत्र नरेश महोदय इदानीं तत्र अग्रे तत्र तिस्रः इति स्त्रीलिङ्गे प्रथमा अपि द्वितीया वदतु
तिस्रः तिस्रः बालिकाः देवालयं गच्छन्ति तिम्न वाट्स् दट् द्वितीया विभक्ति तिस्रः अहं तिस्रः बालिकाः पश्यामि
हा समीचीनं हा समीचीनं महोदय हा अस्तु अस्तु अथवा तत् हा अग्रे तत्र हा इदानीं तत्र सुजाता भगिनी वक्तुम् इच्छति वा तत्र तृतीया तिस्रभिः इति हा तिस्रभिः स्त्रीलिङ्गे हा
तिस्रुभिः बालिकाभिः बालिकाभिः बालिकाभिः
सः अहम्
अहं
मन्दिरं गच्छामि मन्दिरं गच्छामि तावदेव समीचीनं भगिनि हा तत्र तृतीया अस्ति चेत् तत्र सः उपयुज्य सुलभतया वाक्यं कर्तुं शक्नुमः नो चेत् भावः भावप्रयोगः अपि अस्ति अस्तु इदानीं तत्र वेदा भगिनी इदानीं तत्र चतुर्थी
बालिका शब्दस्य उपयोगं करणं
बालिका इति न केवलं तत्र स्त्रीलिङ्गे तिसृभ्यः तावदेव
तिसृभ्यः तिसृभ्य एकनिमिषं तिसृभ्यः बालिकया
बालिकया कथं
सारी चतुर्थी तिसृभ्यः बालिकायै अहम् अन्नं ददामि
किन्तु बालिका अस्ति चेत् तत्र लतायै लतायै
बालिकाभ्यः
तावदेव अस्तु तिसृभ्यः बालिकाभ्यः
क्षम्यतां
चिन्ता मास्तु भगिनि समीचीनं बालिकाभ्यः अहं
वाक्यं ददामि
अन्नं ददामि समीचीनं भगिनि अस्तु अग्रे तत्र श्रीप्रिया भगिनी इदानीं तत्र पञ्चमी
तिसृभ्यः बालिकाभ्यः अध्यापिका पुस्तकं स्वीकरोति
स्वीकरोति समीचीनम् अस्तु इदानीं शुभदा भगिनी षष्टि
तिसृणाम् इति तिसृणां महिलानां
तिसृणां स्वीकरोतु
तिसृणां महिलानां सत्यं महोदय
अन्यत् वाक्यमपि वदतु भगिनि तत् केवलम् आगतं
न महोदय सम्यक् अस्ति बहु समीचीनं
अस्तु 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 इदानीं तत्र सप्तमी एव करणीयं तत्र प्रिया भगिनी सप्तमी करोति वा तत्र
अस्तु महोदय तिसृषु मूर्तिषु सौन्दर्यम् अस्ति
हा समीचीनं भगिनि हा अस्तु अतः तत्र त्रि इति शब्दस्य कृतवन्तः तत्र रूप लिङ्गभेदः अस्ति अपि चतुर् इति शब्दे अपि तत्र लिङ्गभेदः अस्ति किन्तु तदनन्तरं पञ्च षष् तत्र तु लिङ्गभेदः नास्ति इदानीं तत्र प्रिया भगिनी तत्र अधोभागे अवधेयम् इति अस्ति तद् एकवारं पठति वा
गीतासोपाने वा
न अत्र एव भगिनि
पञ्चतः आरभ्य शतं यावत् ये सङ्ख्याशब्दाः तेषां त्रिषु लिङ्गेषु समानरूपाणि भवन्ति
न न तदनन्तरम् अग्रे इदानीं वयम् अग्रे गतवन्तः भगिनि तत्र अग्रिमपुटे क्षम्यताम् अग्रिमपुटे 545 इति अस्ति खलु अधोभागे अधोभागे भगिनि
सप्तन् अष्टन् नवन् दशन् एकादशन् द्वादशन् त्रयोदशन् चतुर्दशन् पञ्चदशन् षोडशन् सप्तदशन् अष्टादशन् नवदशन् इत्येतेषां नकारान्तशब्दानां रूपाणि पञ्चन् शब्दवत् केवलं बहुवचने भवन्ति
अतः तत्र एकादशन् द्वादशन् सर्वं तत्र पञ्चशब्दवत् भवति अतः तत्र एकवारं तत्र रूपं वदतु भगिनि तत्र पूर्वम् आसीत् तत्र उदाहरणे दत्तम् आसीत् किन्तु तत्र एकादशन् इति पदं स्वीकृत्य तत्र रूपाणि एकवारं वदतु भगिनि तत्र
एकादश एकादश एकादशभिः एकादशभ्यः एकादशभ्यः एकादशना दशानाम् एकादशसु
हा इति समीचीनं भगिनि हा धन्यवादः इदानीं तत्र सुजाता भगिनि तत्र इदानीं तत्र द्वादशन् इति स्वीकृत्य एकवारं वदति वा तत्र रूपाणि
आं महोदय द्वादश द्वादश द्वादशभिः द्वादशभ्यः द्वादशभ्यः द्वादशानां द्वादशसु
हा इति समीचीनं भगिनि हा अस्तु हा इदानीं तत्र अतः तत्र एकतः दशपर्यन्तं ज्ञातवन्तः इदानीम् एकादशतः नवदशपर्यन्तमपि ज्ञातवन्तः रूपाणि कथं तत्र कथं भवन्ति इति इदानीं तत्र विंशतिः इदानीं तत्र विंशतिः तत्र इति शब्दस्य तत्र किं भवति तत्र विंशतिः इति शब्दः स्त्रीलिङ्गे अस्ति त्रिंशत् अपि शब्दः स्त्रीलिङ्गे अस्ति तत्र अग्रिमे पुटे पश्यन्तु, षष्टिः इति शब्दः त्रिंशत् चत्वारिंशत् अपि षष्टिः सप्ततिः सर्वं तत्र दत्तमस्ति. तत्र एकमेकं पश्यामः इदानीं तत्र अग्रे. तत्र इदानीं श्रीप्रिया भगिनी तत्र अग्रे पठति वा विंशतिः इति शब्दस्य रूपाणि एकवारम्?
विंशतिः स्त्रीलिङ्गपदं, विंशतिः विंशतिं विंशत्या विंशत्यै विंशतये विंशत्याः विंशतेः विंशत्याः विंशतेः विंशत्यां विंशतौ.
हा, तत्र मतिशब्दवत् इति अस्ति खलु? हा, अस्तु. अत्र अवधेयमपि अस्ति अधोभागे. तत्र केवलं तत्र वामभागे यदस्ति तद् पठतु भगिनि.
एकोनविंशतितः नवविंशतिं यावत् सङ्ख्येयवाचकानां सङ्ख्याशब्दानां रूपाणि विंशतिवत् एकवचने एव.
हा इति, हा, तत्र विंशतिवत् तत्र इति, हा, अतः तत्र किमस्ति, तत्र केवलं यदि एतेषां तत्र शब्दानाम् उपयोगः कुर्मः तत्र विभक्ति का इति एव द्रष्टव्यमस्ति, तावदेव. तत्र अन्यत् किमपि न करणीयम् अस्ति. अस्माकं कार्यं केवलं तत्र विशेषणविशेषभावः अस्ति. तत्र केवलं विशेष्यस्य लिङ्गं न तत्र दर्शनं नावश्यकं, यतोहि तत्र लिङ्गभेदः नास्ति. केवलं तत्र वचनभेदः तु बहुवचने एव भवति, अतः वचनमपि केवलं बहुवचने अस्ति इति द्रष्टव्यमस्ति. तदनन्तरं किं विभक्ति का इति द्रष्टव्यमस्ति. समानविभक्तिरूपं स्थापनीयम् अस्ति. अतः तत्र एकवारं पश्यामः. तत्र इदानीं तत्र
महोदय एक संशयः अस्ति. नवदश तु बहुवचने अस्ति. एकोनविंशतितः एकोनविंशति तत्तु एकवचने अस्ति. नवदश बहुवचने
एकोनविंशति एकवचने अस्ति. रूपं विभक्त्या रूपम् एकवचने.
परन्तु एकोनविंशति तत्तु विंशति नास्ति, परन्तु तदपि एकवचने अस्ति. नवदशः बहुवचने अस्ति.
सत्यं महोदय, सत्यं. तत्र पदस्य एव तत्र लिङ्गं सर्वं खलु अपि वचनं. हा, अत्र एकोनविंशति नाम तत्र एतत् पदस्य स्त्रीलिङ्गरूपम् इति, यतोहि तत्र अन्ते विंशतिः अस्ति इति. अन्यत् पदं तत्र नवदश, तत्र दश अस्ति इति कृत्वा तत्र तस्य पदस्य तादृशरूपम् इति. अस्तु, इदानीं तत्र अग्रे गीताञ्जलिभगिनी वक्तुं शक्नोति वा इदानीं? नो चेत् चिन्ता मास्तु. अस्तु, तत्र अग्रे शोभा भगिनी इदानीं तत्र विंशतिः इति उपयुज्य तत्र विंशतिः तत्र कवयः इति अथवा देवाः इति स्वीकृत्य वदतु भगिनि तत्र सर्वासु विभक्तिषु.
अस्तु महोदय, विंशतिः विंशतिः देवाः, विंशतिं देवान्, विंशत्या देवैः.
हा, तत्र पश्यतु, तत्र क्लेशः अस्ति खलु. तत्र विंशत्या इति अस्ति, किन्तु देवैः इति एव, तदेव साधुरूपम् अस्ति. हा,
देवैः, तत्र एकम् एकवचने इति वर्तते.
हा, तत्र नियतवचनं, तत्र नियतलिङ्गं नियतवचनम् इति अस्ति, तत्र परिवर्तनं न भवत्येव इति. हा, अतः तत्र यतोहि तत्र विशेषणभावः अस्ति, किन्तु तत्र परिवर्तनं न भवति. यत् परिवर्तुं शक्नुमः तत्र एव तत्र सामान्यं कर्तुं शक्नुमः नाम तत्र विभक्तिरूपे परिवर्तनं भवति अतः तादृशरूपं स्वीकुर्मः किन्तु तत्र लिङ्गभेदः वा वचनं तत्र तु किमपि अन्यत् किमपि न कर्तुं शक्नुमः अतः तत्र यदस्ति तदेव अतः
विंशत्यै अधुना चतुर्थी विंशत्यै अथवा विंशतये देवेभ्यः
देवेभ्यः
अपि च पञ्चमी विंशत्याः अथवा विंशतेः देवेभ्यः पुनः विंशति षष्ठी विंशत्याः अथवा विंशतेः देवानां सप्तमी विंशत्याम् अथवा विंशतौ देवेषु
इति भवति समीचीनं भगिनि अस्तु सत्यं भगिनि
तृतीया विभक्ति विंशत्या देवैः वा कि देवाभिः वा
देवः इति देवः इति पुल्लिङ्गे अस्ति भगिनि
देवाः न देवा इति रूपं न
अत्र तु पुल्लिङ्गे स्वीकृतम् अस्ति यतो यद्यपि तत्र विंशतिः इति शब्दः स्त्रीलिङ्गे अस्ति किन्तु किमपि तत्र विंशतिः देवाः इति भवति देवः इति देवः इति पुल्लिङ्गशब्दः देवाः कति देवाः सन्ति उत्तरं किं भवति अत्र उत्तरं विंशतिः देवाः सन्ति इति उत्तरम् अस्ति इदानीं सन्ति इति क्रियापदं देवाः इति कर्तृपदं विंशतिः इति तत्र सङ्ख्यावाचकशब्दः विशेषणम् अस्ति किन्तु विंशतिः इति शब्दस्य लिङ्गं किम् इत्युक्ते स्त्रीलिङ्गम्
अपि
नित्यस्त्रीलिङ्गम् इति अतः तत्र किं तत्र सामान्यमस्ति विशेषणं नाम किम् अत्र विशेषणं नाम समानविभक्तिः अस्ति विंशतिः देवाः इदानीं तत्र देवाः इति स्थाने देवान् इति द्वितीयविभक्त्यन्तरं स्वीकुर्मः रूपं स्वीकुर्मः किं भवति विंशतिः स्थाने विंशतिं देवान् तदनन्तरं तृतीयविभक्तौ विंशत्या देवैः इति भवति
नित्यं रूपम् अस्ति विंशतिः
एतदेव रूपं पुल्लिङ्गे भवतु स्त्रीलिङ्गे भवतु नपुंसकलिङ्गे भवतु विशेष्यम् एतत्तु तादृशमेव अस्ति अस्तु अग्रे तत्र इदानीं तत्र शुभदा भगिनी इदानीं तत्र विंशतिः इति एव तत्र इदानीं तत्र स्त्रीलिङ्गपदं किं तत् नदी इति स्वीकृत्य वदति वा
आं महोदय विंशतिः नद्यः विंशतिं नदीः विंशत्या नदीभिः विंशत्यै विंशतये नदीभ्यः विंशत्याः विंशतेः नदीभ्यः विंशत्याः विंशतेः नदीनां विंशत्यां विंशतौ नदीषु
इति भवति भगिनि समीचीनम् अतः तत्र अभ्यासम् आवश्यकम् इति खलु अभ्यासः आवश्यकः अस्तु समीचीनम् इदानीं तत्र नपुंसकलिङ्गे अपि तादृशमेव अस्ति इदानीं तत्र त्रिंशत् इति पश्यामः तत्र सुजाता भगिनी अस्तु तत्र सुजाता भगिनी भवती पठति वा अग्रे तत्र त्रिंशत् इति रूपाणि
आम् महोदय त्रिंशत् त्रिंशतं त्रिंशता त्रिंशते त्रिंशतः त्रिंशतः त्रिंशति
अत्र तु वयं जानीमः तत्र हलन्तपदम् अस्ति भवत् शब्दवत् तत्र भवत् भवतं भवन्तं भवता भवते भवतः भवतः भवति इति अतः तत्र त्रिंशत् शब्दः सुलभः अस्ति किन्तु अत्र स्त्रीलिङ्गे अस्ति अतः तत्र भवत् इति साधु नास्ति किन्तु यतोहि भवत् इति पुल्लिङ्गपदम् अस्ति किन्तु तत्र हलन्तपदं तत्र वयं जानीमः तत्र लिङ्गभेदः न दृश्यते इति अस्तु तत्र नाम लिङ्गभेदः नाम पुल्लिङ्गे वा स्त्रीलिङ्गे समानरूपम् अस्ति इति
महोदय स्त्रीलिङ्ग् अस्ति चेत् त्रिंशत् शब्दस्य त्रिंशत् त्रिंशते कथमस्ति? तत्तु पुलिङ्ग भवति,
सरित्वत् भवति, सरित्वत् भवति,
तत्र हलन्तपदमस्ति खलु महोदय, तकारान्तपदं, तकारान्तपदं, हलन्तपदं,
हलन्तपदम् अस्ति
खलु, हा तत्र विंशतिः तत्र तु अजन्तपदम् अस्ति, इकारान्तपदं मतिशब्दवत्, एतत्तु हलन्तपदं, हलन्तपदं तत्र दृष्टवन्तः, तत्र पुल्लिङ्गे वा स्त्रीलिङ्गे रूपभेदः नास्ति, किन्तु नपुंसकलिङ्गे तत्र भेदः अस्ति. अस्तु सुजात, हा समीचीनं महोदय. अस्तु सुजात भगिनी, अधोभागे तत्र अवधेयम् इति अस्ति, तत्र दक्षिणभागे. एकोनत्रिंशतः,
एकोनत्रिंशतः पञ्चाशतं यावत्
संख्येयवाचकानां
संख्याशब्दानां रूपाणि त्रिंशत् शब्दवत् एकवचने.
हा तत्र पूर्वं किम् आसीत्, तत्र विंशतिः तत्र एकोनविंशतितः नवविंशतिं पर्य यावत् इति आसीत्, इदानीं तत्र तु एकोनत्रिंशतः नवपञ्चाशत् पर्यन्तं यावत् इति अस्ति, किमर्थम्?
एकोनत्रिंशत्
त्रिंशत् तदनन्तरं तत्र विंशतिः अस्ति, तदनन्तरं त्रिंशत् भवति, तदनन्तरं सङ्ख्या का अग्रे? न त्रिंशत् अनन्तरं तत्र दश, विंशतिः, त्रिंशत्, तदनन्तरं
विंशतिः, चत्वारिंशत्,
हा चत्वारिंशत्, तदपि हलन्तपदमेव, तकारान्तपदमेव, अतः तत्र त्रिंशत् वद् तदपि अस्ति चत्वारिंशत्, तदनन्तरं पञ्चाशत् अपि,
पञ्चाशत् अपि
समानमेव अस्ति, अतः तत्र तावत्पर्यन्तं रूपाणि समानानि भवन्ति इति. अतः तत्र त्रिंशति तावत् समानरूपं भवति, तत्र यद् पञ्चाशत् इति स्वीकुर्मश्चेदपि तदेव भवति. अस्तु समीचीनम्. इदानीं तत्र प्रिया भगिनी, तत्र अग्रे तत्र त्रिंशत् इति उपयुज्य तत्र त्रिंशत् तत्र, हा इदानीं कविः इति स्वीकृत्य वदति वा, त्रिंशत् कवयः?
अस्तु, त्रिंशत् कवयः, त्रिंशतं कवीन्, त्रिंशता कविभिः, त्रिंशत् कविभ्यः, त्रिंशतः कविभ्यः, त्रिंशतः कवीनां, त्रिंशति कविषु.
हा समीचीनं भगिनी, हा उत्तमम्. अस्तु अग्रे तत्र उषा भगिनी, इदानीं तत्र त्रिंशत् उपयुज्य तत्र स्त्रीलिङ्गे किं तत्र लता इति करोति वा?
लता वा
महोदय, रमा, रमा इति करोतु. हा
त्रिंशत् शब्दः स्त्रीलिङ्गे, त्रिंशत् रमाः, त्रिंशतं रमाः, त्रिंशता रमाभिः, त्रिंशते रमाभ्यः, त्रिंशतः रमाभ्यः, त्रिंशतः रमाणां, त्रिंशति रमासु इति.
समीचीनं भगिनि, हा समीचीनम्. अस्तु अग्रे नरेश महोदय, इदानीं तत्र चत्वारिंशत् इति तत्र रूपाणि एकवारं वदतु, चत्वारिंशत् रूपाणि कानि?
चत्वारिंशतं, चत्वारिंशता, चत्वारिंशते, चत्वारिंशतः, चत्वारिंशतः, चत्वारिंशति.
हा इति समीचीनम्. इदानीं तत्र चत्वारिंशत् इति तत्र देवाः इति वदतु, चत्वारिंशत् देवाः.
चत्वारिंशत् देवाः, चत्वारिंशतं
देवान्
चत्वारिंशता देवेभिः
न न न
देवैः
देवैः
देवैः चत्वारिंशत् देवेभ्यः चत्वारिंशतः देवेभ्यः चत्वारिंशतः देवानां चत्वारिंशति देवेषु
देवेषु इति समीचीनं महोदय. अस्तु अस्तु अग्रे तत्र शोभा भगिनी अग्रे इदानीं तत्र एतत् दृष्टवन्तः इदानीं तत्र षष्टिः इति तत् कुर्मः. एकवारं पठति वा तत्र षष्टिः रूपाणि.
षष्टिशब्दः स्त्रीलिङ्गे षष्टिः षष्टिं षष्ट्या षष्ट्यै अथवा षष्टये षष्ट्याः षष्टेः षष्ट्याः षष्टेः षष्ट्यां षष्टौ इति भवन्ति
इति. इदानीं तत्र षष्टिः इति तत्र बालकः इति
बालकः षष्टिः बालकाः षष्टिं बालकान् षष्ट्या बालकैः षष्ट्यै षष्टये बालकेभ्यः षष्ट्याः षष्टेः बालकेभ्यः षष्ट्याः षष्टेः बालकानां षष्ट्यां षष्टौ बालकेषु.
इति समीचीनं भगिनि. अस्तु इदानीम् अग्रे तत्र वेदा भगिनी.
आं महोदय.
तत्र स्त्रीलिङ्गे वदति वा तत्र षष्टिः इति तत्र
षष्टिः
महिला महिलाः इति
महिला षष्टिः महिलाः षष्टिं महिलाः षष्ट्या महिलाभिः षष्ट्यै षष्ठये महिलाभ्यः षष्ट्याः षष्टेः महिलाभ्यः षष्ट्याः षष्टेः षष्टिविभक्ति महिलानां षष्ट्यां षष्ठौ महिलासु
महिलासु. समीचीनं भगिनि. अतः तत्र इदानीं तत्र विंशतिः इति दृष्टवन्तः पूर्वं तादृशः एव तत्र सप्ततिः अपि अस्ति अपि षष्टिः अपि तत्र तादृशम् इति एव वक्तुं शक्नुमः. तत्र इकारान्तस्त्रीलिङ्गपदम् अस्ति तदनन्तरं सप्ततिः इति तादृशमेव. भगिनी तत्र अधोभागे अवधेयं यत् अस्ति तत् एकवारं पठति वा.
अहं वा महोदय.
तत्र यत् वामभागे अस्ति तद् पठतु.
एकोनषष्टितः नवषष्टिं यावत् एकोनषष्टितः नवषष्टिं यावत् सङ्ख्येयवाचकानां सङ्ख्याशब्दानां रूपाणि षष्टिवत् एकवचने.
नाम यदि तत्र नवषष्टिः इति भवति चेत् तत्र समानमेव रूपं भवति इति. समीचीनम्. अस्तु इदानीं तत्र गीताञ्जलि भगिनी तत्र नवषष्टिः इति उपयुज्य तत्र बालकाः इति वदति वा भगिनि.
आं महोदय, प्रयत्नं करोमि. क्षम्यतां महोदय.
चिन्ता मास्तु भगिनि. चिन्ता मास्तु. तत्र नवषष्टिः बालकाः.
अस्तु, नवषष्टिः बालकाः नवषष्टिं बालकान् नवषष्ट्या बालकैः नवषष्ट्यै बालकेभ्यः
नवषष्ट्या
षष्टये बालकेभ्यः नवषष्ट्याः बालकेभ्यः नवषष्टेः बालकेभ्यः नवषष्ट्याः बालकानां नवषष्टेः बालकानां नवषष्ट्यां बालकेषु नवषष्टौ बालकेषु.
समीचीनं भगिनि. अस्तु उत्तमम्. अस्तु इदानीम् अग्रे सरामः. तर्हि तत्र श्रीप्रिया भगिनी तत्र अधोभागे तत्र अवधेयं तत्र वामस्तम्भे यदस्ति तद् वामभागे तद् पठितवन्तः, किन्तु मध्यमभागे अपि दक्षिणभागे तत्र न पठितवन्तः. एकवारं पठति वा भगिनि?
आम् आं, सप्ततिशब्दः खलु, नो चेत् अवधेयं, केवलम् अवधेयं वा?
केवलम् अवधेयम्.
एकोनसप्ततिः सप्ततितः नवनवतिं यावत् सङ्ख्येयवाचकानां सङ्ख्याशब्दानां रूपाणि सप्ततिवत् एकवचने.
तत्र सप्ततिः तत्र विंशतिः वत् एव अस्ति, अतः तत्र इदानीं मास्तु इति तव नाम तत्र जानीमः. अपि शतम् इति आरभ्य
शतं पूर्णतया पठामि वा? नो चेत्
शतम् एकवारं पठतु भगिनि, शतं तत्र एकवारं पठित्वा तत्र अधोभागे यदस्ति तत् पठतु.
शतं नपुं शतशब्दः नपुंसकलिङ्गं, शतं शतं शतेन शताय शतात् शतस्य शते, सङ्ख्येयवाचकानां शतसहस्रादिसङ्ख्याशब्दानां रूपाणि एकवचने भवन्ति.
हा इति तत्र शतम् इति शब्दः, सहस्रम् इति शब्दः, तत्र तथा आरभ्य शतारभ्य तत्र सर्वं तत्र एकवचने भवति इति वार्ता. अस्तु, समीचीनं भगिनि. तत्र इदानीं तत्र अग्रिमे पुटे तत्र एकम् इति तत्र तस्य अभ्यासः अस्ति, द्वि इति पदस्य अभ्यासः अस्ति, त्रि इति पदस्य अभ्यासः अस्ति, चत्वर् इति पदस्य अपि अभ्यासः अस्ति, तत् सर्वं त्यजामः. यतोहि तत्र पूर्ववर्गे अपि कृतवन्तः, अतः तत्र अग्रे तत्र अभ्यासः 260 इति अस्ति, षष्टिः अधिकद्विशतं, तत्र पञ्चादिशब्दानां रूपाणि इति, तत् तत्र तत् सः अभ्यासः समीचीनः भवति इति मन्ये. अतः तत्र आरम्भं करोति वा भगिनि तत्र?
महोदय, अत्र एकः प्रश्नः, सङ्ख्येयवाचकानां सङ्ख्याशब्दानां
हा भेदः अस्ति भगिनि. अग्रे अग्रे अद्य मास्तु, किन्तु तत्र सङ्ख्यानां तत्र द्वैविध्यमस्ति. तत्र यत् यदि सङ्ख्या इति वक्तुम् इच्छामः तत्र विंशतिः बालकाः इति तत् तादृशरूपं जानीमः, अन्यत् रूपम् अपि अस्ति तत्र बालकानां विंशतिः इति, तत्र षष्टिः उपयुज्य बालकानां विंशतिः इति तादृशरूपम् अस्ति. अग्रिमे वर्गे तत्र तस्मिन् विषये चर्चयामः भगिनि, तत्र इदानीं क्लेशः मास्तु इति. किन्तु उत्तम प्रश्नः एव, तत्र सङ्ख्या सङ्ख्येयवाचकः तत्र कः भेदः, तत्र किञ्चित् अस्ति वक्तुं?
समानमेव दृश्यते महोदय, अतः
सत्यं सत्यं. हा तत्र तत्र जनार्दन हेग्डे महोदयस्य तत्र पुस्तके तत्र समीचीनं वर्णनम् अस्ति, अतः तत्र प्रायशः अग्रिमे वर्गे वा तत्र अथवा तस्य अग्रिमे वर्गे हा तत्र किञ्चित् पठामः भगिनि.
अस्तु महोदय.
अतः तत्र केवलं वाक्यद्वये यदि न वक्तुं शक्नोमि, किन्तु तत्र किञ्चित् हा अतः
अभ्यासः अस्ति.
अस्तु, किन्तु निश्चयेन तदपि पठामः.
महोदय
अस्तु,
पुस्तकस्य नाम किं, जनार्दन हेग्डे
महोदय? इदानीं न स्मरामि भगिनि, तत्र प्रायशः तत्र अभ्यास
सङ्ख्यावाचकशब्दाः
न न तत् पुस्तकं मम पार्श्वे नास्ति भगिनि, तत्तु तत्र शत पुटानि सन्ति तस्मिन् पुस्तके, तत्तु बृहत् अस्ति. न न मम पार्श्वे अन्यत् किमपि पुस्तकम् अस्ति, किन्तु नाम न स्मरामि भगिनि. तत्र प्रायः अभ्यासदर्शिनी वा अथवा शुद्धकौमुदी वा तस्मिन् तत्र अध्यायः अस्ति तत्र सङ्ख्या इति विषये. किन्तु किं भगिनि?
सङ्ख्या प्रपञ्चः, जनार्दन हगडे महोदयस्य.
हा किन्तु तत् पुस्तकं साक्षात् पुस्तकमस्ति भगिनि मम पार्श्वे केवलम् अन्यत् पुस्तकमस्ति यस्मिन् केवलं हा तदपि समीचीनं सत्यं, किन्तु अहं न पठितवान, किन्तु अन्यत् पुस्तकं तत्र न जानामि, अभ्यासदर्शिनी वा अथवा शुद्धकौमुदी वा, यस्मिन् तत्र एकः अध्यायः अस्ति तत्र सङ्ख्यायाः विषये.
शुद्धिकौमुदी
मध्ये अस्ति वा?
एकः अस्ति, एक अध्यायः अस्ति,
तदेव तद् तेन अहं परिचितः, किन्तु तत्र पुस्तकम् अस्ति इति जानामि, किन्तु अहं न दृष्टवान् पुस्तकं
पुस्तकं दत्तमस्ति महोदय, सङ्ख्येयः सङ्ख्येय इति दत्तमस्ति.
हा सत्यं भगिनि, हा अतः तत्र प्रायशः अग्रिमवर्गे तस्मिन् तदपि पठामः, लाभः एव. अस्तु शुद्धकौमुदी, अस्तु धन्यवादः भगिनि. इदानीं तत्र अन्वेषणं मया अन्वेषणं न करणीयमस्ति. नवमध्याय अस्तु, समीचीनं भगिनि. अतः तत्र अग्रिमे वर्गे वा अथवा तस्य अनन्तरं तत्र PDF स्वीकृत्य अहं प्रेषयामि, तदपि पठामः. अस्तु इदानीं तत्र हा एषः अभ्यासः तत्र 260 इति, हा तद् एकवारं
पठामः,
आरम्भं करोतु भगिनि. हा
कोष्टकस्थ सङ्ख्यया सूचितानां पञ्चादिशब्दानां रूपाणि विशेष्यानुगुणं रिक्तस्थाने पूरयत. उदाहरणं पञ्चभ्यः बालकेभ्यः पारितोषिकं ददाति. नवानां रसानां नामानि वदत. क्षम्यतां महोदय, नव इत्येव अस्ति, नवानां रसानां नामानि वदत.
हा नव इति, समीचीनं भगिनि. अस्तु अग्रे तत्र अग्रिमपि करोतु. तत्र
दशानां जनानां कार्यम् एकं यन्त्रं करोति.
हा समीचीनम्. अस्तु अग्रे तत्र हा नरेश मोदी अग्रे पठनं करोति वा?
कुत्र पञ्चभ्यः बालकेभ्यः पारितोषिकं ददाति.
हा तदनन्तरम् अपि एकं वाक्यं कृतं, वाक्यद्वयं कृतम्, इदानीं तत्र सप्त इति अस्ति बालानां.
आम् आम् सप्तानां बालानां खाद्यं द्वौ एव खादितवन्तौ.
पश्यतु अवगच्छति वा नरेश महोदय, अवगच्छति वा? तत्र सप्तानां बालानां खाद्यं द्वौ एव खादितवन्तौ.
आम् आम्
अस्तु अग्रिमं करोतु महोदय.
आम् मातृणां षट्
हा तत्र षट् इति तत्र षण्णाम् इति भवति महोदय, तत्र षण्णाम् इति
षण्णां मातृणां पुत्रः कार्तिकेयः अस्ति.
हा इति अस्तु समीचीनं. उषा भगिनी अग्रे.
आं महोदय, द्वीपैः ओ अस्तु सप्तानां न सप्तैः सप्तभिः द्वीपैः विशिष्टा इयं पृथिवी वर्तते.
इयं पृथिवी वर्तते, पृथिव्याम् अस्यां तत्र पृथिव्यां तत्र कति द्वीपाः सन्ति? सप्तद्वीपाः सन्ति, अतः
इयं पृथिवी सप्तभिः द्वीपैः विशिष्टा वर्तते.
नाम तत्र अस्याः पृथिव्याः वैशिष्ट्यं किम् इत्युक्ते तत्र सप्त द्वीपाः सन्ति अस्यां पृथिव्याम् इति, अतः तत्र पृथिवी विशिष्टा भवति. विशिष्टा इति विशेषणम् अस्ति पृथिवी इति पदस्य. इयं पृथिवी विशिष्टा, तत्र केन विशिष्टा इति भवति प्रश्नः. केन विशिष्टा, केन विशिष्टा अस्ति एषा पृथिवी अथवा इयं पृथिवी? इयं पृथिवी सप्तभिः द्वीपैः विशिष्टा वर्तते. अस्तु अग्रिमं
पृथिवी वसूनां विषये उल्लेखः पुराणेषु दृश्यते. अष्ट अस्ति वसूनां षष्टिविभक्त्याम् अस्ति. अष्टानां वसूनां विषये अष्टानाम् अस्ति वा महोदय? अष्टानां वसूनां विषये उल्लेखः पुराणेषु दृश्यते.
कुत्र वयं जानीमः तत्र पूर्वम् अवधेयं किम् आसीत्? तत्र पञ्च आरभ्य तत्र पञ्चन् सप्तन् अष्टन् नवन् दशन् सर्वं पञ्च इति एव. अतः तत्र पञ्चानाम् इति अस्ति, अत्रापि तत्र
अष्टानाम्,
अष्टानाम् इति समीचीनम्. अष्टानां वसूनां विषये
उल्लेखः पुराणेषु
दृश्यते. तत्र पुराणेषु यदि पश्यामः तत्र तत्र अष्टवसवः सन्ति, अष्टवसवः सन्ति इति तत्र तेषाम् उल्लेखः वर्तते, तत्र पुराणेषु दृश्यते. समीचीनम्. अस्तु अग्रे
क्षम्यतां महोदय, वसु इति वधूवत् स्त्रीलिङ्गपदं
वा महोदय? वसुः इति पुल्लिङ्गपदम् अस्ति खलु भगिनि, पुल्लिङ्ग अष्टवसवः खलु?
अस्तु महोदय,
अष्टवसवः तेषु अन्तिमः एव तत्र भीष्मः इति खलु?
अतः गुरुवत् गच्छति
वा? हा, गुरूणाम् इति तत्र नत्वं, किन्तु अत्र वसूनाम् इति.
धन्यवादः.
अस्तु अग्रे तत्र इदानीं शोभा भगिनी अग्रे.
आं महोदय, तत्र रसैः अस्ति, रसैः काव्यं रुचिरं भवति, रसैः तत्र तृतीया भवति, तत्र नव नव नवभिः नवभिः रसैः काव्यं रुचिरं भवति.
हा, काव्यं रुचिरं भवति,
नवरसकाव्यं. दश इन्द्रियेषु मनः एकादशं भवति, इन्द्रियेषु तत्र सप्तमी, दशेषु इन्द्रियेषु मनः एकादशं भवति.
हा, मनः एकादशं भवति, समीचीनं भगिनि. अस्तु अग्रे गीताञ्जलि भगिनी अग्रे.
महोदय, दशसु.
धन्यवादः भगिनि. हा, दशसु, पञ्चसु, हा, दशसु, सत्यं. हा
महोदय, अर्थः कः?
अत्र चिन्तयामि भगिनि, तत्र मनः तत्र साक्षात् इन्द्रियं नास्ति, किन्तु तत्र इन्द्रियम् इव अस्ति, तत्र अन्तः इन्द्रियम् इति चिन्तयन्ति खलु, तत्र बहिर् इन्द्रियम् इति वदामः, तत्र ते तु तत्र दश इन्द्रिया तत्र इन्द्रियाणि सन्ति, मनः अपि इन्द्रियं वत् अस्ति, किन्तु तत्र नाम तत् तदपि तत्र साक्षात् तत्र आत्मा इति नास्ति खलु, तत्र मनः इति अपि तत्र इन्द्रियं वत् अस्ति, अतः तत्र इन्द्रियेषु तत्र यदि गणनं कर्तुम् इच्छामः तत्र दशसु इन्द्रियेषु एक अन्यतमः नास्ति, अतः तत्र नूतनः अस्ति, अतः तत्र एकादश इन्द्रियाणि सन्ति इति एव वक्तव्यम् इति मन्ये भगिनि. हा
महोदय, अत्र अन्यपि तद् इति तादृशं स्वीकुर्मः, किन्तु यत्र वयं सप्तमीभक्तेः प्रयोगं कुर्मः खलु महोदय, तस्मात् एव एकं स्वीकर्तुं शक्यते वा, नो चेत् एतादृशमपि कर्तुं शक्यते महोदय?
सत्यं भगिनि, हा, साधारणतया तत्र समूहः अस्ति, तत्र समूहः तत्र समूहे ये सदस्याः सन्ति तेषु अन्यतमः एव तत्र सप्तमीभक्ति प्रयोगे भवति, किन्तु अत्र एकादशम् इति दत्तमस्ति, अतः मम एतादृशं चिन्तनम्.
अस्तु महोदय,
किन्तु साधारणतया तत्र यथा तत्र साधारणवाक्यं तत्र पाण्डवेषु तत्र अर्जुनः मध्यमः इति तत्र तादृशमेव भवति, तदेव भवती चिन्तयति खलु?
किमर्थम् अत्र एकादशं, दश एव इन्द्रियाणि सन्ति किन्तु एकादशम् इति?
हा, तत्र अतः तत्र आशान् तत्र तत्र यत् लिखितं तत्र के इच्छन्ति इति न जानामि, किन्तु तत्र प्रायशः मनः अन्यतमः नास्ति, अतः तत्र नूतनसदस्यः इति एव स्वीकर्तव्यः इति मन्ये. किन्तु एकवारमपि अहमपि पृष्ट्वा वदामि भगिनि यदि
प्राप्नुश्चेत्.
अस्तु, अस्तु, धन्यवादः भगिनि. अस्तु, अग्रे तत्र वदतु भगिनि. हा
अस्तु, नवमबिन्दु वर्षेभ्यः, अत्र वर्षेभ्यः इत्युक्ते अयं कार्यं करोति.
तत्र वर्षेभ्यः इति तत्र विभक्ति का? तत्र
वर्षेभ्यः इति चतुर्थी वा महोदय?
न न, तत्र तावत् तत्र समयस्य विभागः कुर्मः खलु भगिनि, तत्र
वर्षे. ओ अस्तु, पञ्चमी तत्र.
हा पञ्चमी, यतोहि तत्र तस्मात् प्राक् किम् अस्ति, तदनन्तरं सः कार्यं कर्तुम् आरब्धवान् इति. समये समये यत् स्थानमस्ति यतः सः कार्यं कर्तुम् आरब्धवान् तत् स्थानमस्ति खलु, तत्र तेन स्थानेन समयस्य विभागः भवति, तस्मात् प्राक् तदनन्तरम् इति. अतः पञ्चमी अत्र
विभागः. अस्तु, उत्तमम्. अस्तु महोदय, अत्र षड्भ्यः.
हा षड्भ्यः इति समीचीनं. हा
कार्यं करोति.
हा षड्भ्यः वर्षेभ्यः अयं कार्यं करोति, समीचीनं. हा इदानीं तत्र
द्वादश बालिकाः. अस्तु, द्वादश इत्युक्ते बालिकाः परीक्षायाम् उत्तीर्णाः इति तु प्रथमा. द्वादश बालिकाः परीक्षायाम् उत्तीर्णाः.
द्वादश बालिकाः
परीक्षायाम् उत्तीर्णाः, सर्वे प्रथमा एव बालिका.
तत्र द्वादशः वा अथवा द्वादश वा?
द्वादश.
हा तावदेव, समीचीनं भगिनि. हा अहं बहुवारं तत्र दोषतया वदामि, तत्र द्वादशाः द्वादशः इति, किन्तु तत्र विसर्गः नास्ति. उत्तमं भगिनि, भवती सम्यक्तया उक्तवती. द्वादश बालिकाः परीक्षायाम् उत्तीर्णाः भवन्ति अथवा सन्ति, उत्तीर्णाः सन्ति, समीचीनं भगिनि. अस्तु, अग्रे वेदा भगिनि.
महोदय.
हा इदानीं तत्र अग्रिमे पुटे
अभ्यासः वा? पुस्तके सूचिताभिः सङ्ख्याभिः रिक्तस्थानानि पूरयत. उदाहरणं दशसु, दश सङ्ख्या अस्ति, दशसु तत्र सप्तमी विभक्ति, दशसु विद्यालयेषु संस्कृतपाठः न प्रचलति, छात्राः विद्यालयं न गच्छन्ति. छात्राः सप्तछात्राः विद्यालयं न गच्छन्ति.
हा समीचीनं. हा अग्रे
अग्रे पाण्डुपुत्रेषु युधिष्ठिरः ज्येष्ठः, तत्र सप्तमी विभक्ति पाण्डुपुत्रेषु. पञ्चसु पाण्डुपुत्रेषु,
समीचीनं, पञ्चसु
पाण्डुपुत्रेषु युधिष्ठिरः ज्येष्ठः,
युधिष्ठिरः ज्येष्ठः. तावत्पर्यन्तं भगिनि, तावत्पर्यन्तं, समीचीनं. हा समीचीनं भगिनि, धन्यवादः. अस्तु, अग्रे सुजाता भगिनि.
महाद्वीपेषु एशिया महाद्वीपं बहु
बृहत्तमं.
सप्तसु महाद्वीपेषु एशिया महाद्वीपं बृहत्तमम्.
बृहत्तमम्, अस्तु, अग्रिमम्.
गृहेषु पृथ्वी अन्यतमः.
ग्रहेषु
क्षम्यतां, गृहेषु पृथ्वी अन्यतमः ग्रहः. नवसु
नवसु
नवसु गृहेषु पृथ्वी अन्यतमः ग्रहः
तत्र नवग्रहाः सन्ति तेषु पृथ्वी अन्यतमः ग्रहः अस्ति समीचीनम् अस्तु अग्रे प्रिया भगिनी
दशरथस्य राज्ञः आसन् राज्ञः इति राज्ञी शब्दस्य बहुवचनरूपम् अस्ति दशरथस्य तिस्रः राज्ञः आसन्
समीचीनम् अग्रिमम्
मुनिभ्यः नमः मुनिः इति पदस्य चतुर्थी त्रिभ्यः मुनिभ्यः नमः
त्रिभ्यः तत्र त्रि इति पदस्य तत्र रूपं किम् आसीत् तत्र
पुल्लिङ्गे
त्रिभ्यः एव त्रिभ्यः एव समीचीनं भगिनि त्रिभ्यः मुनिभ्यः नमः स्त्रीलिङ्गे तिसृभ्यः तिसृभ्यः इति किन्तु पुल्लिङ्गे समीचीनं भगिनि अस्तु अग्रे शुभदा भगिनि
आं महोदय सप्तमं खलु
वेदानाम् इति
वेदानां रचयितारः ऋषयः एव चतुर्णां वेदानां रचयितारः ऋषयः एव
समीचीनम् अग्रे
षष्टि बहुवचने पुराणानां रचयिता व्यासः अष्टादश इति दत्तमस्ति अष्टादशानां पुराणानां रचयिता व्यासः
रचयिता व्यासः तत्र रचयिता इति कीदृशपदम्
रचयिता
ओके समीचीनम् अस्तु भगिनि तत्र रचयितृ इति
रचयितृ ओ अस्तु अस्तु धन्यवादः भगिनि
तत्र पुनः तत्र प्रत्ययः किम् उक्तः कः उक्तः तृच् खलु
तृच् प्रत्यय
तृच् प्रत्ययः तत्र धातृ कर्तृ कर्तृ इति तत्र रचयिता इति समीचीनम् अस्तु अग्रे
महोदय तत्र द्वितीयबिन्दु पाण्डुपुत्रेषु युधिष्ठिरः ज्येष्ठः इति प्रयोगस्य किमपि विशिष्ट नाम अस्ति न महोदय सप्तमी प्रयोगः
अस्ति वा तत्र विभक्तिवल्लर्यं
दत्तकारणे निर्धारणे सप्तमी अपि च षष्टि अपि
निर्धारणे वा
निर्धारणे वा अस्तु अस्तु धन्यवादः भगिनि
धन्यवादः भगिनि
तत्र विभक्तिवल्लर्यं तादृशं नाम दत्तमस्ति वा भगिनि
प्रायः महोदय
अस्तु 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 किन्तु समीचीनं धन्यवादः भगिनि धन्यवादः समीचीनम् अस्तु
निर्धारणे सप्तमी वा
समीचीनं
षष्टि अपि भवितुमर्हति सप्तमी
सप्तमी अपि भवितुमर्हति समीचीनं भगिनि धन्यवादः अस्तु अग्रे श्रीप्रिया भगिनि
चतसृभ्यः दिग्भ्यः खगाः आगच्छन्ति
समीचीनं तत्र किमर्थं तत्र चतसृभ्यः इति स्वीकृतं भवत्या
दिक् इति
दिशति स्त्रीलिङ्ग स्त्रीलिङ्गपदं समीचीनम् अस्तु अग्रे
द्वाभ्यां जनाभ्यां व्याघ्रः मारितः
द्वाभ्यां जनाभ्यां व्याघ्रः मारितः समीचीनम् अस्तु
तृतीया मध्ये अस्ति खलु महोदय अत्र द्वाभ्यां
सत्यं भगिनि सत्यं तत्र तप्रत्ययः तत्र कर्मणि इति तत्र तादृशं तेन तेन व्याघ्रः मारितः समीचीनं भगिनि अस्तु अधोभागे तत्र अवधेयम् इति अस्ति एकवारं पठति वा भगिनि
अवधेयम् एकतः चतुःपर्यन्तं सङ्ख्याशब्दानां लिङ्गभेदात् रूपभेदः पञ्चतः नवपर्यन्तं सङ्ख्याशब्दानां त्रिषु लिङ्गेषु समानं रूपम् एकोनविंशतितः अनन्तरं लिङ्गवचनादिविषये विशेषनियमाः सन्ति, ते अत्र न निरूपिताः
इति. किन्तु तत्र किम् अस्ति इति वयं तु ज्ञातवन्तः, तत्र प्रयोगः कीदृशः इति तत्र ज्ञातवन्तः. यद्यपि वयं नियमं न जानीमः किन्तु तत्र रूपं कथं भवति इति ज्ञातवन्तः. तावत् समीचीनमेव अस्ति. अस्तु, इदानीं तत्र समीचीनं, धन्यवादः भगिनी. इदानीं तत्र अग्रे अस्मिन् करपत्रे तत्र
धन्यवादः.
हा, अत्र अस्मिन् करपत्रे तत्र किं तत्र कति कियत् इति विषये अपि तत्र अस्ति. तदनन्तरं तत्र हा तदपि प्रायशः तत्र यदि तस्य अभ्यासः भवति चेदपि प्रायशः उत्तममेव अस्ति. किन्तु तत्र अग्रे इदानीं तत्र गीतासोपने तत्र किं कुर्मः तत्र हा प्रायशः तत्र लघु अभ्यासः यदस्ति तद् तम् अभ्यासं समापयामः. तत्र इदानीं गीतासोपने तत्र त्रिषष्टितमे पुटे तत्र 63 तत्र गीताञ्जलि भगिनी तत्र आरम्भं करोति वा गीतासोपने?
आं महोदय,
अधोभागे अधोभागे. हा
अस्तु. कश्चन गीताशिबिरे भागं गृहीतवान्, तेन तस्य जीवने परिवर्तनं भवति.
हा, तेन नाम किम्?
तेन इत्युक्ते कश्चन, कश्चनेन.
न न न न कश्चनेन न,
ओ एकनिमेष, तेन तस्य जीवने, ओ तेन शिब गृहीतवान् ग्रहणेन
तत्र हा तत्र भागं गृहीतवान् तत्र तत्र गतवान् खलु तत्र गमनेन इति तत्र गमनेन तत्र शिबिरेण इति अपि प्रायशः वक्तुं शक्नुमः. तत्र सः गतवान् तत्र, अतः तत्र शिबिरम् इति अथवा शिबिरे सः भागं गृहीतवान् इति कारणतः तत्र तेन
इति अपि भवितुम् अर्हति वा तत्र महोदय?
शिबिरेण महोदय.
किं भगिनि?
गीतया
इति न न गीतया इति न गीताशिबिरे भागं गृहीतवान् तत्र भागं कृतवान् इति गृहीतवान् इति कारणतः तत्र.
अस्तु अस्तु, तत्र तेन इति पुंलिङ्गे अस्ति.
अतः तत्र अतः तत्र गीता प्रायशः भगवद्गीता इति न भवति. हा, तस्य तु तत्र तत्र यः कश्चन अस्ति तस्य तस्य जीवने परिवर्तनं भवति. हा, अग्रे
महोदय, यत् भागं कृतवान् तस्य ग्रहणेन तेन इत्युक्ते न महोदय?
महोदय, तत्र शिबिरं ग्रहणेन तस्य जीवने परिवर्तनं भवति इति अपि.
हा, शिबिरस्य हा तादृशं तादृशम् अस्ति भगिनि. हा,
तत्र शिबिरस्य ग्रहणं भवति वा महोदय? भागम् इत्यस्य
भागम् इति अस्ति. हा, भागम् इति एव इति भागमिति स्वीकुर्मः भगिनि. हा, अस्तु, अग्रे.
ततः सः कं कं निर्णयं करोति इति अत्र लिखितम् अस्ति. तत्र एकशब्दस्य उचितरूपाणां सहाय्येन रिक्तस्थानानि पूरयत.
हा, इदानीम् अग्रिमं प्रथमं करोतु तत्र.
महोदय, प्रश्नः महोदय, तेन तस्य जीवने परिवर्तनं भवति. अनन्तरं ततः, ततः इत्युक्ते किम् अर्थं महोदय तत्र?
ततः नाम परिवर्तनं भवति तत्र, ततः नाम परिवर्तने तत्र. हा,
परिवृत्य कथं वदामः
महोदय? ततः नाम परिवर्तनम् अभवत्, अतः तत्र किं किं सः निर्णयं करोति. इदानीं तत्र सर्वं परिवर्तितम् अस्ति, अतः तत्र सः निर्णयं स्वीकरोति. अस्तु, अहम् एतत् करोमि एतत् करोमि, अतः ततः नाम कारणः
कारणं
न न ततः नाम तत्र परिवर्तनात् इति.
अस्तु, महोदय, परिवृत्य
अपि समीचीनं तत्र
न न अत्र तु तत्र परिवर्तनम् अभवत् तेन अथवा ततः तत्र परिवर्तनेन अथवा परिवर्तनात् इति अस्तु प्रथमं वाक्यं भगिनि
प्रतिदिनं गीतायाः अध्यायं पठामि प्रतिदिनं गीतायाः एकम् अध्यायं पठामि
हा इति समीचीनम् अस्तु समीचीनम् इदानीं वेदा भगिनी अग्रे तत्र
श्लोकस्य कण्ठपाठं करोमि श्लोकस्य षष्टिविभक्ति एकस्य श्लोकस्य कण्ठपाठं करोमि
हा समीचीनम् अस्तु सुजाता भगिनी अग्रे
आं महोदय प्रतिमासं प्रतिमासं जनाय गीतापुस्तकं ददामि एकस्मै जनाय गीतापुस्तकं ददामि
हा समीचीनं भगिनि हा एकस्मै गीतापुस्तकं ददामि समीचीनम् अस्तु अग्रे प्रिया भगिनि
जनेन सह वा गीताविषये चर्चां करोमि एकेन जनेन सह वा गीताविषये चर्चां करोमि
हा समीचीनं हा शुभदा भगिनी अग्रे
गीताजयन्त्याः एकस्मात् दिनात् पूर्वं सर्वत्र गीतासन्देशं प्रसारयामि
हा समीचीनं श्रीप्रिया भगिनी
वर्षे एकस्मिन् सप्ताहे गीताशिक्षणे भागं वहामि
वहामि समीचीनं हा नरेश महोदय
महोदय अहं एव चेदपि गीताकक्षां सञ्चालयामि अहम् एकः एव चेदपि गीताकक्षां सञ्चालयामि
सञ्चालयामि इति अस्ति हा समीचीनं हा अस्तु इदानीं तत्र हा समीचीनं तत्र इदानीं तत्र एकशब्दः उपयुज्य तत्र उषाभगिनी शोभभगिनी एकमेकं वाक्यं वदतु प्रथमविभक्ति मास्तु किन्तु अन्या किम् अन्या विभक्ति
एकस्य आरभ्य वा महोदय एकस्य गीताशिबिरस्य एव प्रभावं बलवत् अस्ति
हा बलवत् अस्ति प्रभावं बलवत् अस्ति प्रभावः बलवान् अस्ति इति
बलवान्
अस्ति
अस्तु
बलवान् अस्ति हा समीचीनम् उषा भगिनि एकम् उपयुज्य
एकस्मिन् उपयुज्य वा महोदय
एकस्मिन् स्वीकृतो हा
एकस्मिन् दिने अहम् अण्टार्टिका गमिष्यामि
अस्तु भगिनि समीचीनम् उत्तममस्ति हा ततः तत्र चित्रं प्रेषयतु
लक्ष्यम् उत्तमम् अस्ति
किं किं महोदय
लक्ष्यम् उत्तमम् अस्ति
हा लक्ष्यम् उत्तमम् अस्ति समीचीनम् अस्तु तर्हि इदानीं तत्र सङ्ख्यायाः विषये इदानीं तत्र बहु किमपि वयम् अधीतवन्तः अद्य तत्र अस्मिन् विषये तु तत्र बहु किमपि अस्ति तत्र यथा पूर्वम् उक्तं तत्र जनार्दन हेग्डे महोदय तत्र अस्मिन् विषये एकं पुस्तकमेव लिखितवान् अस्ति तत्र पुस्तकं किं शतपुटानि अस्ति वा अथवा शताधिकं सङ्ख्या इति विषये न न सङ्ख्या इति विषये पुस्तकं यदस्ति वंशी
शताधिकम् अस्ति महोदय
शताधिकम् अस्ति अतः तत्र किं
तत्र तस्य मूल्यं तु न्यूनमेव अस्ति महोदय पञ्चादश रूप्यकाणि
सत्यं भगिनि किन्तु तत्र पठितुं विषयान्
पठितवती महोदय मम पार्श्वे अस्ति परन्तु अहं न
दृष्टवती नाम यदि सङ्ख्या इति विषये वक्तुम् आरम्भं कुर्मः तत्र बहु किमपि अस्ति वक्तुम् अतः तत्र तद् सः एव अन्यः वर्गः भवति अतः इदानीं मास्तु इदानीं मास्तु केवलं तत्र हा अतः अध्याये यदस्ति तत्र पञ्चपुटेषु अस्ति चेत् तद् तत् पठितुं वयं शक्नुमः
शक्नुमः महोदय तु रिसर्च् कृतवान् तत्र तु सङ्ख्याविषये तु रिसर्च् कृतवान्
न अहं न किमपि न कृतवान् किन्तु
जनार्दन हगडे महोदयेन तत्र रिसर्च् कृतवान् तस्मिन् विषये सङ्ख्यायाः विषये अतः बहु किमपि लिखितवान् तत्र कारकसूत्राणि अपि लिखितवान् समासविषये अपि सर्वं यत्र यत्र सङ्ख्याविषयाः सन्ति तत्र तस्मिन् विषये बहु किमपि उक्तवान् परन्तु अहमपि न पठितवती महोदय
अस्तु भगिनि अत्र तत्र अन्यः वर्गः आवश्यकः अस्ति
सङ्ख्यावर्गः कुर्मः महोदय
सङ्ख्यावर्गः
भवान् चालयतु महोदय तर्हि
अस्तु भगिनि पश्यामः अस्तु तर्हि इदानीं समयः अपि जातः तत्र अन्ते तत्र मम शिशुः भगिनी भवती न उक्तवती अद्य अतः भवती एव तत्र अन्ते शान्तिमन्त्रं वदतु
अस्तु ॐ भद्रं कर्णे विशृणुयाम देवाः भद्रं पश्येमाक्षभिर्यजत्राः स्थिरैरङ्गैः सुष्ठु वागं सस्तनूभिः व्यशेम देवहितं यदायुः स्वस्ति नः इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः स्वस्ति नस्तारक्षो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्ददातु ॐ शान्ति शान्ति शान्तिः लोका समस्ता सुखिनो भवन्तु लोका समस्ता सुखिनो भवन्तु लोका समस्ता सुखिनो भवन्तु ॐ शान्ति शान्ति शान्तिः ॐ गुरुभ्यो नमः धन्यवादः महोदय
धन्यवादः भगिनी सर्वेभ्यो नमः धन्यवादः
धन्यवादः
नमस्कारः धन्यवादः